ओम नमः सच्चिदानंद रूपाय परमात्मने ज्योतिर्मय स्वरूपाय विश्वमांगल्यमूर्तये प्रकृतिः पंचभूतानि ग्रहा लोका स्वरास्तथा दिशः कालश्च सर्वेषां सदा कुर्वन्तु मंगलम् रत्नाकरा धौतपदां हिमालयकिरीटिनीं ब्रह्मराजर्षिरत्नाढ्यां वंदे भारतमातरम् महेन्द्रो मलयः सह्यो देवतात्मा हिमालयः ध्येयो रैवतको विंध्यो गिरिश्चारावलिस्तथा गंगा सरस्वती सिंधुर्ब्रह्मपुत्रश्च गंडकी कावेरी यमुना रेवा कृष्णा गोदा महानदी अयोध्या मथुरा माया काशी कांची अवंतिका वैशाली द्वारिका ध्येया पुरी तक्षशिला गया प्रयाग पाटली पुत्रं विजया नगरं महत् इंद्रप्रस्थं सोमनाथस्तथा मृतसरः प्रियं चतुर्वेदाः पुराणानि सर्वोपनिषदस्तथा रामायणं भारतञ्च गीता सद्दर्शनानि च जैनागमास्त्रिपिटका गुरुग्रंथः सताङ्गिरः एष ज्ञाननिधिश्रेष्ठ श्रद्धेयो हृदि सर्वदा अरुन्धत्यनसूया च सावित्री जानकी सती द्रौपदी कण्णगी गार्गी मीरा दुर्गावती तथा लक्ष्मीरहल्या चन्नम्मा रुद्रमाम्बा सुविक्रमा निवेदिता सारदा च प्रणम्या मातृदेवताः श्रीरामो भरतः कृष्णो भीष्मो धर्मस्तथार्जुनः मार्कण्डेयो हरिश्चन्द्रः प्रह्लादो नारदो ध्रुवः हनुमान् जनको व्यासो वसिष्ठश्च शुको बलिः दधीचि विश्वकर्माणौ पृथुवाल्मीकि भार्गवाः भगीरथश्चैकलव्यो मनुर्धन्वन्तरिस्तथा शिविश्चरन्ति देवश्च पुराणोद्गीतकीर्तयः बुद्धा जिनेन्द्रा गोरक्षः पाणिनिश्च पतञ्जलिः शंकरो मध्वनिम्बार्कौ श्रीरामानुजवल्लभौ झूले लालोथ चैतन्यस्तिरुवल्लुवरस्तथा नायन्मारालवाराश्च कम्बश्च बसवेश्वरः देवलो रविदासश्च कबीरो गुरुनानकः नरसिस्तुलसीदासो दशमेशो दृढव्रतः श्रीमच्छंकरदेवश्च बन्धुसायणमाधवौ ज्ञानेश्वरस्तुकारामो रामदासः पुरन्दरः बिरसा सहजानन्दो रामानन्दस्तथा महान् वितरन्तु सदैवैते दैवीं सद्गुणसंपदम् भरतर्षिः कालिदासश्रीभोजो जकणस्तथा सूरदासस्त्यागराजो रसखानश्च सत्कविः रविवर्मा भातखण्डे भाग्यचन्द्रः स भूपतिः कलावन्तश्च विख्याता स्मरणीया निरन्तरम् अगस्त्यः कम्बुकौण्डिन्यौ राजेन्द्रश्चोलवंशजः अशोकः पुष्यमित्रश्च खारवेलः सुनीतिमान् चाणक्यचन्द्रगुप्तौ च विक्रमशालिवाहनः समुद्रगुप्तश्रीहर्षशैलेन्द्रो बप्परावलः लाचिद्भास्करवर्मा च यशोधर्मा च हूणजित् श्रीकृष्णदेवरायश्च ललितादित्य उद्बलः मुसुनूरीनायकौ तौ प्रतापशिवभूपतिः रणजित्सिंह इत्येते वीरा विख्यातविक्रमाः वैज्ञानिकाश्च कपिलः कणादः सुश्रुतस्तथा चरको भास्कराचार्यो वराहमिहिरः सुधीः नागार्जुनो भरद्वाज आर्यभट्टो वसुर्बुधः ध्येयो वेङ्कटरामश्च विज्ञा रामानुजादयः रामकृष्णो दयानन्दो रवीन्द्रो राममोहनः रामतीर्थो रविन्दश्च विवेकानन्द उद्यशाः दादाभाई गोपबन्धुस्तिलको गान्धिराद्रुताः रमणो मालवीयश्च श्रीसुब्रह्मण्यभारती सुभाषः प्रणवानन्दः क्रान्तिवीरो विनायकः ठक्करो भीमरावश्च फुले नारायणो गुरुः सङ्घशक्तिप्रणेतारौ केशवो माधवस्तथा स्मरणीयाः सदैवैते नवचैतन्यदायकाः अनुक्ता ये भक्ताः प्रभुचरणसंसक्तहृदयाः अविज्ञाता वीरा अधिसमरमुध्वस्तरिपवः समाजोद्धर्तारः सुहितकरविज्ञाननिपुणाः नमस्तेभ्यो भूयात् सकलसुजनेभ्यः प्रतिदिनम् इदमेकात्मतास्तोत्रम् श्रद्धया यः सदा पठेत् स राष्ट्रधर्मनिष्ठावान् अखण्डम् भारतम् स्मरेत् भारतमाता की जय।